अथ श्रीदशावतार हरिगाथा प्रलयोदन्मदुदीर्णजलविहारानिमिषाङ्गम् कमलाकान्तमखण्डितविभवाब्धिं हरिमीडे चरमाङ्गोद्धृतमन्दरतटिनं कूर्मशरीरम् कमलाकान्तमखण्डितविभवाब्धिं हरिमीडे सितदंष्ट्रोद्धृतकाश्यपतनयं सूकररूपम् कमलाकान्तमखण्डितविभवाब्धिं हरिमीडे निशितप्राग्र्यनखेन जितसुरारिं नरसिंहम् कमलाकान्तमखण्डितविभवाब्धिं हरिमीडे त्रिपदव्याप्तचतुर्दशभुवनं वामनरूपम् कमलाकान्तमखण्डितविभवाब्धिं हरिमीडे क्षपितक्षत्रियवंशनगधरं भार्गवरामम् कमलाकान्तमखण्डितविभवाब्धिं हरिमीडे दयिताचोरनिबर्हणनिपुणं राघवरामम् कमलाकान्तमखण्डितविभवाब्धिं हरिमीडे मुरलीनिस्वनमोहितवनितं यादवकृष्णम् कमलाकान्तमखण्डितविभवाब्धिं हरिमीडे पटुचाटीकृतनिस्फुटजनतं श्रीघनसंज्ञम् कमलाकान्तमखण्डितविभवाब्धिं हरिमीडे परिनिर्मूलितदुष्टजनकुलं विष्णुयशोजम् कमलाकान्तमखण्डितविभवाब्धिं हरिमीडे अकृते मां विजयध्वजवरतीर्थो हरिगाथाम् अयते प्रीतिमलं सपदि यया श्रीरमणोऽयम् इति श्रीमद्विजयध्वजतीर्थयति कृता श्रीदशावतारहरिगाथा।